नीलालब्धस्थापितलुप्ताखिललोका लोकातीतैर्योगिभिरन्तश्चिरमृग्यां बालादित्य श्रेणीसमानद्युतिपुञ्जां गौरीमम्बाम् अम्बुरुहाक्षीमहमीरे गौरीमम्बाम् अम्बुरुहाक्षीमहमीरे आशापाश क्लेशविनाशं विदधानां पादाम्भोज ध्यानपराणां पुरुषाणां ईशामीशार्धाङ्गहरां ताम् अभिरामां गौरीमम्बाम् अम्बुरुहाक्षीमहमीरे गौरीमम्बाम् अम्बुरुहाक्षीमहमीरे नानाकारै शक्तिकदम्बैर्भुवनानि व्याप्यस्वैरं क्रीडति येयं स्वयमेका कल्याणीं तां कल्पलतामानति भाचां गौरीमम्बाम् अम्बुरुहाक्षीमहमीरे गौरीमम्बाम् अम्बुरुहाक्षीमहमीरे मूलाधारादुत्थितवीथ्याविधिरन्ध्रं सौरञ्चान्द्रं व्याप्य विहारोज्ज्वलिताङ्गीं येयं सूक्ष्मात् सूक्ष्मतनुस्तां सुखरूपां गौरीमम्बाम् अम्बुरुहाक्षीमहमीरे गौरीमम्बाम् अम्बुरुहाक्षीमहमीरे यस्यामोतं प्रोतमशेषं मणिमाला सूत्रे यद्वद्क्वापि चरं चाप्यचरं च तामध्यात्म ज्ञानपदव्यागमनीयां गौरीमम्बाम् अम्बुरुहाक्षीमहमीरे गौरीमम्बाम् अम्बुरुहाक्षीमहमीरे प्रत्याहार ध्यानसमाधिस्थितिभाजां नित्यं चित्ते निर्वृतिकाष्ठां कलयन्तीं सत्य ज्ञानानन्दमयीं तां तनुमध्यां गौरीमम्बाम् अम्बुरुहाक्षीमहमीरे गौरीमम्बाम् अम्बुरुहाक्षीमहमीरे चन्द्रापीडानन्दितमन्दस्मितवक्त्रां चन्द्रापीडालङ्कृतनीलालकभारां इन्द्रोपेन्द्राद्यर्चितपादाम्बुजयुग्मां गौरीमम्बाम् अम्बुरुहाक्षीमहमीरे गौरीमम्बाम् अम्बुरुहाक्षीमहमीरे आदिक्षान्तम् अक्षरमूर्त्या विलसन्तीं भूते भूते भूतकदम्ब प्रसवित्रीं शब्दब्रह्मानन्दमयीं तां तडिदाभां गौरीमम्बाम् अम्बुरुहाक्षीमहमीरे गौरीमम्बाम् अम्बुरुहाक्षीमहमीरे यस्याः कुक्षौलीनमखण्डं जगदण्डं भूयो भूय प्रादुरभुदुत्थितमेव पत्या सार्धं राजत शैले विहरन्तीं गौरीमम्बाम् अम्बुरुहाक्षीमहमीडे गौरीमम्बाम् अम्बुरुहाक्षीमहमीडे नित्यशुद्धो निष्कल एको जगदीशः साक्षी यस्या सर्गविधौ संहरणे च विश्वत्राण क्रीडनलोलां शिवपत्नीं गौरीमम्बाम् अम्बुरुहाक्षीमहमीडे गौरीमम्बाम् अम्बुरुहाक्षीमहमीडे प्रातःकाले भावविशुद्धिं विदधानो भक्त्या नित्यञ्जल्पति गौरीदशकं यः वाचां सिद्धिं सम्पदमुच्चै शिवभक्तिं तस्यावश्यं पर्वतपुत्री विदधाती।